पदारविन्दम् प्रपन्नतापोपशमातपत्रम् यन्मूलकेतायतयोऽंजसोरु संसारदुःखं बहिरुत्क्षीपन्ति धातर्यध्रस्मन्भव ईश जीवास्ता पत्रयेणोपहताणशर्मा आत्मन्लभन्ते भगवंस्तवाङ्घ्रिच्छाया सविद्यामत आश्रये मार्गन्ति यत्ते मुखपद्मनीडैश्चन्दःसु पर्णैर्ऋषयो विविक्ते यस्याघमर्षोदसरित्वरायाः पदं पदं तीर्थपदः प्रपन्नाः यच्छ्रुद्धया श्रुतवत्या च भक्त्या संमृज्यमाने हृदये वधाय ज्ञानेन वैराग्यबलेन धीरा व्रजेम तत्तेऽङ्घ्रिसरोजपीठम् विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदाम्बुजं ते व्रजेम सर्वे शरणं यदीश स्मृतम् प्रयच्छत्य भयं स्वपुंसा यत्सानुबन्धे सति देहगेहे ममाहमित्यूढदुराग्रहाणा पुंसां सुदूरं वसतोऽपि पुर्या भजेम तत्ते भगवन्पदाब्जम् तान्वासद्धृत्विभिरक्षिभिर्ये पराहृतान्तर्मनसः परेश अथो न पश्यन्त्युरुगाय नूनं येते पदन्यासविलासलक्ष्म्याः पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदासया ये वैराग्यसारं प्रतिलभ्य बोधम् यथाञ्जसान्वीयुरकुण्ठदिष्ण्यम् तथा परे चात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठा त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमस्यान्न तु सेवया ते तत्ते वयं लोकशुश्रूषयाद्य त्वयानुसृष्टास्त्रिभिरात्मभिः स्म सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत्रुतिहर्तवे ते यावद्फलिं तेजहरामकाले यथा वयं चान्नमदाम यत्र यथो भये शान्त इमे हि लोकाबलिम् हरन्तो न मदन्त्यनूहाः त्वं नः सुराणामसि सान्वयानां कूटस्थाद्यः पुरुषः पुराणः त्वं देवशक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविमादधेजः ततो वयं सत्प्रमुखाय दत्ते बभूविमात्मन् करवाम किं ते त्व त्वं नः स्वचक्षुः परिदेहि शक्त्या देवक्रियाथे यदनुग्रहाणाम् इति श्रीमद्भागवते